धन्यवाद आचार्य जी,
धन्यवाद। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। धाय हृदि विश्वेशं धाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। सर्वेषां स्वागतम्। अद्य वयं किं कुर्मः? साक्षात् स्वरूपमहोदयस्य करपत्रमस्ति खलु, तत् पठिष्यामः, तदनन्तरं पुनः वर्गं प्रति आगत्य अत्र किम् इति पश्यामः। भवन्तः द्रष्टुं शक्यते वा?
आमाचार्य,
आमाचार्य।
एतत् वयं गतसप्ताहे पठितवन्तः खलु, एतत् कः पठति इदानीम्? राजेश् महोदय, महोदय अन्म्यूट् कृत्वा एतत् पठतु, पठित्वा किञ्चित् वदतु।
विद्याधरीग्रन्थस्य दशमे पृष्ठे सामान्यम् इति पदार्थस्य विषये दृष्टान्तः दीयते। तत्र परम् अपरं च इति द्विविधं सामान्यम् इति अयं तर्कसङ्ग्रहः इति मूलग्रन्थस्य वाक्यम्। अस्य चित्ररूपेण निरूपणं क्रियते। अस्माकं चित्रा भगिन्या अधः प्रथमे चित्रे अधिकरणाम् अस्ति पुस्तकम्, द्वितीये चित्रे अधिकरणाम् अस्ति नीलरूपम्, तृतीये चित्रे अधिकरणम् अस्ति उत्क्षेपणकर्म। येषु त्रिषु अधिकरणेषु सामान्यानि सन्ति, तानि च आधेयानि। पुस्तकत्वम् इति सामान्यम्, पृथ्वीत्वम् इति सामान्यम्, द्रव्यत्वम् इति सामान्यम्, सत्ता इति सामान्यम्, तथैव च अग्रे द्वितीये तृतीये च चित्रैः चित्रयोः। अस्माकम् अवधानम् अस्मिन् भवेत् यत् सर्वप्रथमं सामान्यस्य अधिकरणं किं किं भवितुम् अर्हति इति चेत्, द्रव्यं गुणः कर्म च, तदा किं सामान्यं कस्य अपेक्षया परं, किं च कस्य उपेक्षया अपरम्।
अपेक्षया
अपरम्।
इदानीं प्रथमचित्रं स्वीकृत्य वदतु अपरं किं परं किम् इति.
पुस्तकत्वम् अपरं पृथ्वीत्वं परं पृथ्वीत्वम् अपरं द्रव्यत्वं परं द्रव्यत्वम् अपरं सत्ता परम्
आहत्य सत्ता इति पराजाति
पराजाति.
अन्य कोऽपि धन्यवादः महोदय. इदानीम् अन्य कोऽपि मूर्ति महोदय भवान् वदतु.
अस्तु महोदय.
किं परं किम् अपरम् इति
चित्रमस्ति करपत्रं चित्रमस्ति
चित्रं दृष्ट्वा वदतु. चित्रं द्रष्टुं शक्यते खलु?
अस्तु अस्तु चित्रं द्रष्टुं शक्नुमः.
चित्रं दृष्ट्वा अस्मिन् चित्रस्य आधारेण किं परं किम् अपरम् इति वक्तव्यम्.
अस्तु भगिनि. नीलरूपे इतु इति वस्तु दत्तवस्तु अपरं नीलत्वम् अपरं धर्मम् अस्ति.
नीलत्व अपेक्षया किं परमस्ति?
नीलत्वं नीलरूपे अपेक्षया नीलत्वम् अपरमस्ति.
नीलत्व अपरं रूपत्वं किमस्ति? नीलत्वस्य अपेक्षया रूपत्वं कीदृशः अस्ति?
रूपत्वम् अपरमस्ति. रूपत्वम् अपेक्षते
परम् यस्य न्यूनदेशवृत्तित्वम् अस्ति सः अपरः, यस्य अधिकदेशवृत्तित्वम् अस्ति सः परः.
अस्तु अस्तु.
वदतु.
नीलत्वं परं रूपत्वम् अस्ति
अपरं. नीलत्वम् अपरम्
नीलत्वम् अपेक्षया रूपत्वम् अपरं रूपत्वम् अपेक्षया नीलत्वम् अपरं वदामः.
वदतु.
रूपत्वम् अपेक्षया गुणत्वं परं गुणत्वम् अपेक्षया रूपत्वम् अपरम्.
वेरि गुड्.
गुणत्वम् अपेक्षया सत्ता परं सत्ता अपेक्षया गुणत्वम् अपरं भवति.
बहु समीचीनं उत्तमं धन्यवादः महोदय. अनिरुद्ध महोदय वदतु.
आम् अहं वदामि. उत्क्षेपण कर्मत्वयोः मध्ये उत्क्षेपणत्वम् अपरं कर्मत्वं परं कर्मत्व सत्ता कर्मत्वयोः मध्ये कर्मत्वम् अपरं सत्ता परं परम्.
इदानीं पश्यतु सत्ता इति पराजाति कुत्र कुत्र वर्तते? कर्मत्वे अस्ति, गुणत्वे अस्ति, द्रव्यत्वे अस्ति इति कृत्वा एव सा परा इति उच्यते. सामान्यस्य त्रयः अधिकरणाः द्रव्यं गुणः कर्म इति. तत्र तेषु किं वर्तते? सामान्यं वर्तते तदेव जाति तस्य एव सतोः भावः यदस्ति तदेव सत्ता इति वदन्ति. सन्देहः अस्ति वा कोऽपि? धन्यवादः महोदय. भवानेव पठतु एकनिमिषं. सन्देहः अस्ति वा अन्य कस्यापि यस्य कस्यापि
भगिनी? अहं चन्द्रप्रभा अस्मि. एतत् मम प्रथमकक्षा अस्ति. किञ्चित् विवरणं दातुं शक्यते वा?
अहं किं करोमि, भवत्याः कृते करपत्रं यद् मया लिखितं तद् अहं प्रेषयिष्यामि.
धन्यवादः भगिनि.
नमस्ते भगिनि, अहं लतिका आनन्दन. मम अपि प्रथमकक्षा अस्ति, अतः माम् अपि सहायं करोतु भगिनि.
निश्चयेन भगिनि, ये न पूर्वम् आगतवन्तः ते सर्वे मां प्रति वाट्सप् ग्रूप् मध्ये नम्बर् प्रेषयतु. अहं किं करोमि, मिलित्वा एकवारं पुनस्मारणं करोमि.
धन्यवादः.
धन्यवादः. भवान् पठतु महोदय, सामान्यं विशेषः.
न्यायशास्त्रे कश्चन सिद्धान्तः, सर्वे पदार्थाः भिन्नाः, एतत् पुस्तकं तत् पुस्तकं भिन्नं पुस्तकं, द्वयोः पुस्तकयोः विषयः भिन्नः, रूपं भिन्नम् इत्यादिकम्. एवम् एव विश्वे सर्वाणि वस्तूनि भिन्नानि, किन्तु यद्यपि एतत् पुस्तकं भिन्नं तत् पुस्तकं भिन्नं, तथापि द्वे अपि पुस्तके.
तर्हि
न्यायशास्त्रस्य सिद्धान्तः पदार्थाः भिन्नः एव. अहं भिन्नः इत्युक्ते आङ्ग्लभाषायां डिफ्रेण्ट् इति अहं मन्ये. पदद्वयमपि पुस्तकम् अस्ति, परन्तु तयोः मध्ये भिन्नम् अस्ति, भिन्नत्वम् अस्ति.
इदानीम् एवं चिन्तयतु, भवतः कृते पुस्तकद्वयम् अस्ति इति चिन्तयतु.
आम्,
ते द्वौ अपि पुस्तकम् एव, तदापि तयोः मध्ये भेदः अस्ति वा न वा?
अस्ति, भेदः अस्ति.
तदेव अत्र उक्तम्. यद्यपि द्वे अपि पुस्तके, तथापि तयोः मध्ये भेदः अस्ति.
आम्,
तदा एवं विश्वे सर्वाणि वस्तूनि भिन्नानि, एकमपि वस्तु समानम् इति न वक्तुं शक्यते, सर्वे भिन्नभिन्ना एव. यदि येन केनापि प्रकारेण समानः इति वदति चेदपि एकस्मिन् स्थले एकस्मिन् समये वस्तुद्वयं न द्रष्टुं शक्यते, अतः भिन्नानि इति उक्तम्. अग्रे पठतु. तर्हि
इमे द्वे पुस्तके एकया दृष्ट्या भिन्ने, अपरया च दृष्ट्या समाने, नाम तयोः मध्ये साम्यम् अस्ति. अतः द्वयोः पुस्तकयोः मध्ये भेदः अपि अस्ति, येन कारणेन द्वे पुस्तके पृथक् स्तः. अपि च द्वयोः मध्ये साम्यम् अपि अस्ति, येन कारणेन द्वे अपि पुस्तके पुस्तके इति वदामः. अहं वदामि वा तस्य? अत्र कस्मै, अत्र कुतः तत्र भेदः अस्ति, कुतः अभेदः अस्ति इति उक्तम्. साम्यम् अस्ति, तेन कारणेन पुस्तकम् इति पदं द्वयोः द्वयोः उचितं, परन्तु भेदः अपि अस्ति, भिन्न भिन्नभिन्नपुस्तकानि अस्ति. ततः ततः साम्यमस्ति, भेदः अपि अस्ति इति इति उक्तम्.
धन्यवादः महोदय, तावदेव.
धन्यवादः.
अस्मिन् पाठे प्रथमतया द्वयोः पुस्तकयोः अथवा अन्यपदार्थयोः यत् सामान्यम् अस्ति तद् पश्यामः। तदा द्वयोः पदार्थयोः मध्ये यः भेदः अस्ति सः भेदः कपि कः अपि च कथं सिद्धः इति अपि पश्यामः। अत्र साम्यं कीदृशसमानधर्मः धर्मः पुस्तकयोः मध्ये अस्ति। पुस्तकत्वम् इति धर्मः, एतदपि पुस्तकं तदपि पुस्तकं, पुस्तकम् अस्ति इति वदामः। तादृशधर्मः यद् पुस्तके अस्ति, येन धर्मेण यद् पुस्तकम् इति वयं ज्ञातवन्तः, तत् सर्वेषु पुस्तकेषु द्रष्टुं शक्यते। तदेव अनेन एव साम्यम् अस्ति इति उच्यते। समानधर्मः पुस्तकेषु वर्तते, तदेव पुस्तकसामान्यं पुस्तकत्वम् इति वदामः। तेषु मध्ये वर्ण भिन्नभिन्नवर्णः अस्ति, रूपं भिद्यते, आकृति भिद्यते, सब्जेक्ट् भिद्यते, विषयः भिद्यते, कुत्र स्थलस्य देशस्य कालस्य अपेक्षया पुस्तकानि भिद्यते इति कृत्वा तेषां मध्ये भेदः अपि वर्तते, समानता अपि वर्तते। यत्र समानता अस्ति तस्य एव सामान्यम् इति संज्ञा। समानधर्मः, अस्मिन् विषये सन्देहः अस्ति चेत् पृच्छतु। युसुपि महोदय भवान् पठतु।
समानानां धर्मः सामान्यम्। सामान्यम् इत्युक्ते जातिः। एतत् पुस्तकं, तदापि पुस्तकं, तदापि पुस्तकम्, इयम् एकाकारा प्रतीतिः अस्ति, सामान्यं जातिः च। धर्मः कः? धर्मः नाम कस्यचित् पदार्थस्य स्वभावः, यथा पुस्तके पुस्तकत्वं, रूपे रूपत्वं, गमने गमनत्वं, पुनः काचित् गौः धेनुः, कपिलरूपवती, अतः गवी धेनौ कपिलरूपवत्वम् अस्ति। कपिलरूपवत्वम् इति कश्चन धर्मः। कपिल इत्युक्ते किं?
वर्णः,
ओके। सर्वाः जातयः धर्माः एव, किन्तु सर्वे धर्माः जातयः न भवन्ति। दृष्टान्ते
तावत् तस्मात् पूर्वं वदतु, कश्चन धर्मः तावत् पर्यन्तं वदतु, तदनन्तरं पठिष्यामः। समानधर्मः ततः
समानानां वस्तूनां धर्मः सामान्यम् इति उच्यते। सामान्यं जातिः अस्ति, उदाहरणेन पुस्तकत्रयम् अस्ति, त्रीणि पुस्तकानि भिन्नानि सन्ति, परन्तु प्रत्येक पुस्तके पुस्तकत्वम् अस्ति, अतः त्रीणि वस्तूनि पुस्तकम् इति उच्यन्ते। धर्मः इत्युक्ते पदस्य स्वभाव, पदार्थस्य स्वभावः। उदाहरणेन पुस्तकस्य धर्मः पुस्तकत्वम् इत्युक्ते उच्यते. रूपधर्मः रूपत्वम् अस्ति. गमन धर्मः गमनत्वम् अस्ति. उदाहरणेन गौः कपिलगौः कपिलरूपवती गौः सर्वदा गौः उच्यते, यतः गवि गावत्वम् अस्ति. गावत्वं गो धर्मः अस्ति. तत् अवगच्छामि.
धन्यवादः महोदय. अहं किञ्चित् वदामि, तदनन्तरं पठतु. समानानां धर्मः सामान्यम्, एतद् वयं ज्ञातवन्तः. सामान्यस्य अपरसंज्ञा अस्ति जातिः इति. गोषु गोत्वम् इति जाति वर्तते इति अपि वक्तुं शक्यते. एतत् पुस्तकं, तदपि पुस्तकं, तदपि पुस्तकम्. एतत् महोदयेन उक्तं, यत्र यत्र पुस्तकानि सन्ति तेषु एक आकारप्रतीति अस्ति, रूपे रूपत्वमस्ति, कर्मणि कर्मत्वं, द्रव्येषु द्रव्यत्वं. तदा इदानीं पुस्तके कीदृश एक आकारप्रतीतिः अस्ति इति चेत् पुस्तकत्वम् इति एक आकारप्रतीतिः अस्ति, तदेव जाति अथवा सामान्यम् इति वदामः. धर्मः कः? धर्मः नाम कस्यचित् पदार्थस्य स्वभावः. तथैव इदानीम् उक्तं सामान्यम् इति, यतोहि गोषु गोत्वम् अस्ति, मनुष्येषु मनुष्यत्वम् अस्ति, तादृशधर्मः जातिरूपेण समूहरूपेण स्वीकृत्य एव सामान्यम् इति पदार्थस्य निरूपणं जातम्. यदा पुस्तके पुस्तकत्वम्, इदानीं द्रव्य पुस्तकमिति द्रव्यमस्ति, तत्र प्रथमं पुस्तके पुस्तकत्वं, रूपम् इति गुणः अस्ति, रूपे रूपत्वं, गमनः गमनम् इति क्रिया अस्ति, गमने गमनत्वं, द्रव्यगुण कर्म सामान्यस्य त्रीणि अधिकरणानि अत्र उक्तानि. पुनः काचित् गौः कपिलरूपवती, धेनुः इति द्रव्ये आगतं, कपिलरूपवती इति यदा वदामः गुणः उक्तः अस्ति, अतः गवी धेनौ कीदृशरूपमस्ति, कपिलरूपमस्ति, अतः सा कीदृशी अस्ति, कपिलरूपवत्वं तस्य धर्मः. कपिलरूपवती गौः इति वदामः, तस्य धेनौ विद्यमानधर्मः अस्ति कपिलरूपवत्वं, तदेव अत्र उक्तमस्ति. तदेव धर्मः कपिलरूपवती धेनौ कीदृशधर्मः अस्ति इति चेत् कपिलरूपवत्वम् अस्ति, खडे खडत्वम् अस्ति, तादृश व्याख्यानम् अत्र अस्ति. इदानीं महोदय अग्रे पठतु. सर्वे जातयः.
एकनिमिषम्
अवदतु महोदय.
So, jati, jati, dharma, samanyam. These all meanings converge to same one thing. You can say jati is dharma, dharma is samanya. Like that, everything, meaning is, meaning works out to be same thing. Jati, dharma, samanya.
Yatra, yatra, dharma iti vadamaha. तत् सामान्यम् स्वीकृत्य एव निरूपणं निरूपयितुं शक्यते.
धन्यवादः.
सर्वाः जातयः धर्माः एव, किन्तु सर्वे धर्माः जातयः न भवन्ति.
एकनिमिषम् सर्वे जातयः धर्माः एव. इदानीं गोत्वम् इति जाति अस्ति, पुस्तकत्वम् इति जाति अस्ति. यत्र बहवः समानानां धर्मः सन्ति ते जाति इति वदामः. किन्तु केवलम् एकस्य एव धर्मः अस्ति चेत् तत्र जाति इति न वदामः अतः एव सर्वे धर्माः जातयः न भवन्ति इति उक्तम् एतत् मनसि भवेत् अस्य उदाहरणम् अग्रे आयास्यति यत्र जातिरूपेण नास्ति केवलम् एकस्य पदार्थस्य धर्मः अस्ति चेत् तत्र जाति इति न वदामः केवलं सामान्यं तावदेव वदामः न तु जाति पूर्वं किम् उक्तं समानानां धर्मः सामान्यं सामान्यम् इत्युक्ते जाति इति प्रथम लैन् मध्ये अस्ति प्रथमपङ्क्ति पश्यामः चेत् तद् द्रष्टुं शक् ज्ञातुं शक्यते परन्तु इदानीं किम् उक्तं यत्र समानानां धर्मः इति न एकस्य एव धर्मः अस्ति चेत् तत्र सामान्यम् एव न तु जाति इदानीं पठतु सन्देहः अस्ति चेत् पृच्छतु
उदाहरणं विना किञ्चित्
आकाशमस्ति एकः एव अस्ति
या
तत्र जाति इति वक्तुं शक्यते वा न वा
पुनरेकवारं वदतु प्लीस् जाति सर्वे जातयः धर्मा एव किन्तु सर्वे धर्मा जातये न भवति
यतोहि सर्वे जातयः सर्वे जातयः इति वदामः चेत् अत्र समानानां धर्मः इदानीं पुस्तकेषु अदर्वैस् गोषु घटेषु तादृश समूहस्य वर्तते चेत् तस्य जाति इति वदामः समूहस्य समूहं स्वीकृत्य धर्मस्य प्रदर्शनं करोति चेत् तस्य जाति इति वदामः यत्र समानधर्मः जातिरूपेण स्वीकृतं तत्र
समूहः अस्ति चेत् समूह गणसमूह पुष्पसमूह मनुष्यसमूह गोसमूह इत्यादि वदामः
तत्र सर्वत्र जाति इति वदामः गोजाति मनुष्यजाति खडजाति खडस्य जाति तादृशं वक्तुं शक्यते परन्तु एकः एव अस्ति चेत् तादृशं वक्तुं शक्यते वा न वा जाति यत्र यत्र जाति इति वदामः तत्र एक अधिकं भवेत् खलु एकमस्ति चेत् जाति इति न वदामः
एकमस्ति चेत् जाति न वदामः एकस्य अधिकम् अस्ति चेत् द्वयो अस्ति अस्ति जाति वदामः
आम् वदामः
अग्रे पठामि
पठतु
दृष्टान्ते बहूनि पुस्तकानि सन्ति एषु सर्वेषु पुस्तकेषु कश्चन धर्मः अस्ति पुस्तकत्वम् अयं धर्मः पुस्तकत्वं जातिः अपि अस्ति यतः सर्वेषु पुस्तकेषु समानं पुस्तकत्वं वर्तते किन्तु अग्रे गत्वा द्रक्ष्यामः यत् आकाशे आकाशत्वम् इति धर्मः अस्ति स च आकाशत्वधर्मः जातिः नास्ति
वदतु
उदाहरणेन बहूनि पुस्तकानि सन्ति चेत् सर्वेषु पुस्तकेषु जाति पुस्तकत्वम् इति जातिः अस्ति पुस्तकत्वं जातिः अस्ति यतः अधिकानि पुस्तकानि सन्ति परन्तु उदाहरणेन आकाशः अस्ति एक एव आकाशः अस्ति अतः आकाशत्वं धर्मः अस्ति परन्तु आकाशत्वं जातिः नास्ति यतः एकमेव आकाशः अस्ति, अधिकानि आकाशानि न सन्ति.
उत्तमम्. एकनिमिषं महोदय, म्यूट् मध्ये भवतु. अत्र जातेः चिन्तनमस्ति. पुस्तकानि बहवः सन्ति, तेषु पुस्तकेषु कश्चन धर्मः अस्ति, तत् पुस्तकत्वम् इति वदामः. तादृशधर्मपुस्तकेषु वर्तते इति कृत्वा पुस्तकत्वम् इति जाति इति वदामः. यदि पुस्तकम् एकः एव लोके किम् अन्यत् किमपि नास्ति, यदा आकाशः, तत्र धर्मः इति वदामः, न तु जाति. इदानीम् अग्रे पठतु. तस्य उदाहरणमेव आकाशः इति नेत्रमस्ति, आकाशे आकाशत्वमस्ति, तद् धर्मः न तु जाति. एतत् मनसि भवेत्. आहत्य
अत्र मनसि निष्कर्षः भवेत् यत् बहुषु पदार्थेषु समानः धर्मः जातिः इति न्यायशास्त्रे उच्यते. बहुषु पदार्थेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति चेत्, तेषु पदार्थेषु विद्यमानं समानत्वम् इति स्वीकुर्मः. ओके, अहम् अवगच्छामि यत् बहुषु पदार्थेषु बहूनां पदार्थानां सामान्यम् अस्ति. तत् सामान्यं वयं धर्म जातिः इति पचामः.
केवलम् एकस्मिन् एव अस्ति चेत् किं वदामः?
धर्मः न तु जातिः.
तावदेव,
धन्यवादः. धर्मः अथवा जातिः.
इदानीं गोषु समानधर्मः अस्ति चेत् किं वदामः, जाति अथवा धर्मः?
उभाः धर्म जाति शक्यन्ते. उभाः धर्मः जाति,
गोषु गोत्वम् इति जाति. धन्यवादः महोदय.
धन्यवादः.
अस्ति चेत् पृच्छतु.
एकः प्रश्नः अस्ति. आकाश एकमेव अस्ति, तत्रापि वयं वक्तुं शक्नुमः एकजाति अस्ति आकाश इति, तत्र एकमेव आकाश अस्ति, विशेषजाति इति अस्ति इति वक्तुं शक्नुमः. तत् अवगतं, परन्तु तत्र किं दे हव् टेकन् गैड्लैन् एस् इफ् वन् इस् देर् वि शुड् नाट् टेक् जाति, मोर् देन् वन् इस् देर् वि शुड् टेकन् मिनिमम् गैड्लैन् वि केन् इश्यू जाति. वि केन् से आकाश इवन् इफ् इट् इस् वन् वि केन् से इट् इस् अ जाति स्पेशल् जाति वेर् देर् ओन्लि वन् आकाश लैक् देट् we can say, but here they have not said as like that. Even one is there means they have not taken it as a jati, they have taken it as a dharma like that.
Yada jati iti vadamaha tatra samuhasya avashyakata asti, anyatha tadasya prayogasya avashyakata nasti khalu, ekaheva asti chet.
Amode, dhanyavad.
भगिनी क्षम्यताम्, एकं प्रश्नमस्ति. तर्हि हिन्दुजाति बौद्धजाति इत्येव वक्तव्यं खलु? किमर्थं हिन्दुधर्म बौद्धधर्म इति वदामः इति मम प्रश्नः.
तद् भिन्नवार्ता भगिनी, एतत् पारिभाषिकशब्दः अस्ति खलु भगिनी, एतत् जाति
तर्हि केवलं न्यायशास्त्रे धर्मः इत्युक्ते एकः एव अस्ति इति अर्थः.
धर्मः इत्युक्ते समानगुणं समानता कुत्र अस्ति तदेव धर्मः.
अस्तु,
खडे खडत्वम् इति धर्मः, मनुष्येषु मनुष्यत्वम् इति धर्मः, भारतीयेषु भारतीयत्वम् इति धर्मः.
अस्तु,
तादृशधर्मः एव जाति इति उक्तम्.
अवगतं.
जाति इति किमर्थम् इति चेत् तत्र समूहरूपेण उच्यते इति कृत्वा एव जाति इति आगतं, न तु धर्मः इति कृत्वा.
अवगतं.
सामान्यस्य अत्र पश्यतु, समानानां धर्मः सामान्यं, सामान्य इत्युक्ते जाति तावदेव, न तु धर्मः इत्युक्ते जाति इति न. यत्र सामान्यं समूहरूपेण तिष्ठति तत्र जाति इति वदामः, यत्र एकः एव अस्ति तत्र धर्मः तावदेव वक्तुं शक्यते.
अस्तु भगिनि,
भगिनि पठतु भेदः, ततः पठतु.
भेदः, द्वौ घटौ स्तः, एषः घटः तस्मात् घटात् भिन्नः. कथम् इति पृष्टे सति एतस्य घटस्य कपालः तस्य च घटस्य कपालात् भिन्नः, तस्मात् कारणात् एषः घटः अपि तस्मात् घटात् भिन्नः. अयम् अवयवः अन्यस्मात् अवयवात् भिन्नः, अवयवभेदेन अवयविनौ घटौ भिन्नौ. अवयवी नाम यस्य अवयवः सः. अस्तु, अग्रे पठामि भगिनि.
तावद् वदतु भगिनि.
तत्र यत्र यद्यपि तत्र घटे घटत्वम् अस्ति, उभयोः घटयोः घटत्वम् अस्ति, घटत्वं स्तः, तथापि घटयोः मध्ये भेदः वर्तते, तदेव तत्र दृष्टान्तरूपेण अत्र उक्तम् अस्ति. तत्र एकस्मिन् घटे कपालः, तत्र एकस्मिन् भागः भिन्न आकारत्वं प्राप्नोति, आकारे अस्ति, अन्यस्मिन् घटे तु भिन्न आकारम् अस्ति इति कारणात् यद्यपि सामान्यम् अस्ति, यद्यपि समानघटत्वजातिः अस्ति, तथापि उभयोः मध्ये भेदः वर्तते, तत्र भिन्नता वर्तते इति अत्र उक्तवन्तः. अत्र नूतनपरि प्रायः तत्र न्यायशास्त्रपदम् इति अहं मन्ये, अवयवः इति ते उक्तवन्तः. यस्य अवयवः अस्ति, अवयवः इत्युक्ते तत्र अङ्गः
इति वदामः खलु,
अङ्गम् इति तत्र प्रायः भवति, तत्र
अवयवः इत्युक्ते अङ्गम्,
अङ्गं तत्र एकं भागं, घटस्य एकं भागं भागं भिन्नम् अस्ति, अन्य घट अन्यघटस्य तोलनां कुर्मः चेत् भिन्नम् अस्ति इति कारणार्थं तत्र भेदः वर्तते इति उक्तमत्र.
एकनिमिषं भगिनि.
Thank you.
घटौ घटौ स्तः एषः घटः तस्मात् घटात् भिन्नः कथम् इति पृष्टे सति एतस्य घटस्य कपालः कपालः इत्युक्ते घटस्य अर्थभागः यदस्ति बाटम् हाफ् टाप् हाफ् इति चिन्तयतु तस्य च घटस्य कपालात् भिन्नः इदानीं घटद्वयं वर्तते इति चिन्तयतु अनयोः मध्ये यद्यपि रूपं समानमस्ति अस्य आकारः समानः अस्ति चेदपि अनयोः कपालभेदात् घटभेदः वर्तते तस्मात् कारणात् एषः घटः अस्मात् घटात् भिन्नः इति वक्तुं शक्यते तदेव अवयवभेदेन घटभेदः अवयविभेदः अवयवि घटमस्ति अवयवः कपालः अस्ति तथैव अहम् इदानीं दृष्टवती अत्र कपालस्य चित्रमस्ति वा इति भगिनी अधुना ततः पठतु
अधुना परमाणुषु अवयवाः न सन्ति इति बुद्धम् अस्माभिः तर्हि अवयवरहितेषु परमाणुषु भेदः कथं साध्यते विशेषः इति पदार्थस्य स्वीकारे प्रमुखं कारणम् इदं परमाणूनां परस्परभेदः साधनम् अग्रे पठामि भगिनि
एकनिमिषं भगिनि एकनिमिषम् इदानीं वयं किमर्थं सामान्यम् इति पदार्थस्य निरूपणं कृतं द्रव्य प्रथमद्रव्यगुणकर्म आसीत् खलु तदनन्तरं सामान्यम् इति पदार्थः आगतम् अत्र किम् उक्तं सामान्यस्य त्रयः अधिकरणानि सन्ति एतेषु समानधर्मः वर्तते तत् स्वीकृत्य सामान्यम् इति पदार्थस्य निरूपणं जातम् इदानीम् अत्र विशेषः इति एकः पदार्थः अस्ति सप्तपदार्थेषु मध्ये सप्तपदार्थानि के इति वदतु भगिनी एकवारं पदार्थाः के इति भगिनी न श्रूयते वा
सप्तपदार्थाः द्रव्यं गुण कर्म सामान्यं विशेषः समवायः अभावः इति
इदानीं वयं कस्य कस्य निरूपणं कृतम्
घटे पृथ्वीत्वम् अस्ति द्रव्यं द्रव्यत्वम् अस्ति तत् निरूपणं कृतवन्तः
प्रथमं यत्र यत्र गुणः अस्ति तद् द्रव्यम् इति द्रव्यस्य निरूपणं कृतं खलु तदनन्तरं यत्र गुणत्वमस्ति तद् गुणः तदनन्तरं उत्क्षेपणत्वं तादृशं क्रियाय कर्मस्य निरूपणं कृतं खलु अपक्षेपणत्वम् आकुञ्चनं तादृशम् उत्क्षेपण अपक्षेपण आकुञ्चनप्रसार गमनानि पञ्चकर्माणि इति कर्मस्य निरूपणं कृतं तदनन्तरं यत्र यत्र समानधर्मः अस्ति तद् सामान्यम् इति सामान्यम् इति पदार्थस्य निरूपणम् अपि कृतम् इदानीं चतुर्विंशतिगुणाः सन्ति इति गुणस्य निरूपणं कृतं नवद्रव्याणि इति द्रव्यस्य निरूपणं कृतम् इदानीं विशेषः इति पदार्थस्य विषये चर्चा आरब्धा पूर्वम् अवयवः यस्य अस्ति सः अवयवी इति उक्तं खलु इदानीं परमाणुषु अवयवः नास्ति खलु तस्मिन् विषये उक्तं वदतु
तत्र परमाणु इति वदामः चेत् अत्यन्तं लघु भागं यत् अस्ति तदेव परमाणु इति वदामः तत्र परमाणुषु अतः एव अवयवाः सन्ति न सन्ति किमर्थं चेत् तत् इतोपि विभजनं न कर्तुं शक्नुमः तत्र परमाणुना न अस्तु परमाणोः इतोपि विभजनं न कर्तुं शक्नुमः अत्र अवयवाः न सन्ति
तदेव अन्तिमभागः चरमभागः इति वदामः खलु तदेव परमाणु
तत्र तर्हि परमाणुषु भेदः कथं सिद्ध्यते तत्र भेदं कर्तुं तत्र एकः एव अस्ति परमाणु इति अतः तत्र विशेषः इति पदार्थस्य स्वीकारे प्रमुखं कारणं परमाणूनां परस्परभेद साधनम् इति
सर्वे पदार्थाः भिद्यन्ते यद्यपि पुस्तकम् इति समूहः अस्ति चेदपि एकं पुस्तकम् अन्यस्मात् पुस्तकात् भिन्नः एव अनयोः भेदः वर्तते तदा परमाणोः परमाणुषु मध्ये अपि भेदः वर्तते एकं परमाणु अन्यपरमाणुतः भिद्यते एव अतः कथं तेषां भेदज्ञापनं कर्तुं शक्यते कथं वयम् अवगन्तुं शक्यते
गतस्य परमाणु भिन्नं भवति पुस्तकस्य परमाणु भिन्नं भवति इति कारणात् वा भगिनि
अत्र पृथ्वीपरमाणु जलपरमाणु तादृशमस्ति यते अनित्यद्रव्याणि सन्ति खलु तेषां परमाणवः सन्ति ते अपि नित्या एव परमाणुरूपे सर्वनित्या एव न तु अनित्याः अतः तेषां मध्ये अपि भेदः अस्ति यदि यदा भगिनी इदानीम् उक्तं पुस्तकस्य परमाणु खडस्य परमाणु ते अपि भेद भिन्नः अस्ति तत्रापि ततः तदर्थमेव विशेषः इति पदार्थस्य स्वीकारे प्रमुखं कारणम् अग्रे पठतु अत्र सन्देहः अस्ति वा
नास्ति भगिनि
द्व्यकारः अपि अस्ति
द्वयणुकपर्यन्तम् अवयवभेदात् अवयवी भेदः सिद्धः द्वयोः परमाणवोः संयोगेन एकं द्वयणुकं सम्यक् वदामि वा भगिनि द्वयणुकं जायते तर्हि एकं परमाणु स्वीकृत्य अन्यं परमाणु अपि योजयामः चेत् द्वयणुकं जायते इति सः वदति अस्तु द्वि प्ल संयोगे अणुकं यन् सन्धिं कृत्वा द्वयणुकं द्वौ अणु यस्मिन् तत् द्वयणुकं बहुव्रीहि
भवत्याः हस्तः अस्ति खलु एकस्मिन् हस्ते एकः परमाणु अस्ति अन्यहस्ते एकः परमाणु अस्ति द्वौ मिलित्वा किं भवति द्वयणुकं भवति खलु
अस्तु तत्र क प्रत्ययः त्रयः अणवः यस्मिन् तत् त्रयणुकम् एवमेव चतुरणुकं पञ्चाणुकं षडणुकं सप्तानुकं तर्हि द्वयणुकं पर्यन्तं सर्वेषामपि पदार्थानां परस्परभेदसाधनं स्व अवयवभेदेन वक्तुं शक्यम् ओ इदानीम् अवगतम् अस्तु तत्र अणु अस्ति तत्र इतोपि संयोगं कुर्मः तत् इतोपि वर्धते वर्धन्ति ते अतः तयोः मध्ये अपि भेदं भवितुम् अर्हति अतः
इति कृत्वा ते स्वेन भेदते स्व अवयवभेदेन ते स्वस्य कृते भेदः निरूपितः
एतत् बयालजि क्लास् इव अस्ति भगिनि अणोः संयोजनमिति अस्तु इदानीम् अवगतं भगिनि
सो अवयवभेदात् स्ववर्तकं करोति ते स्वेन व्यावर्तनं करोति अवयवः नास्ति इति कृत्वा अवयवः नास्ति अतः स्व अवयवभेदेन वक्तुं शक्यम् इति उक्तमस्ति यतोहि तर्हि द्वयणुकं पर्यन्तं सर्वेषामपि पदार्थानां परस्परभेदसाधनं स्व अवयवभेदेन वक्तुं शक्यम् यतोहि
तर्हि द्वानुख्याम् आरभ्य स्व अवायभेद इति वक्तुं शक्यते, एका अनुख्यां तत् न शक्यते.
यत्र एक अणु अणु अस्ति अपि च अणुद्वयम् अस्ति तत्र स्ववावर्तकम् इति वदामः स्वेन ते पृथक् करोति.
द्वायनुका संयोगः संयोगस्य अवयवाः सन्ति.
यदा संयोगः जायते तदानीम् अवयवः अवयवः भवति, अतः एव स्व अवयवभेदेन वक्तुं शक्यम् इति उक्तम्.
ओके,
तर्हि त्रयणुकपर्यन्तं सर्वेषामपि पदार्थानां परस्परभेदसाधनं स्व अवयवभेदेन वक्तुं शक्यम् इति.
धन्यवादः
भगिनी. तर्हि आकाशे अपि अणु भवति किल, तत्र किमर्थं भेदः नास्ति इति उक्तवन्तः? तत्र अपि आकाशस्य अणुक परमाणूनां योजनेन तत्र अपि भेदः.
एकनिमिषं, कीदृशभेदः इदानीं वदतु. विशेषः इति पदार्थस्य आवश्यकता अस्ति खलु.
अस्तु, भिन्नरीत्या एषः भेदः स्व अवयवभेदः इति अस्ति, केवलं भेदः इति अस्ति.
स्व अवयवभेदः इत्युक्ते इदानीं पृथ्वी द्रव्यमस्ति, जलमपि द्रव्यम्, आकाश सप्तपदार्थेषु एकोपि सन्ति, तेषां द्रव्यगुण कर्म एते विभजनं जातं खलु. तत्र सर्वेषु द्रव्येषु एतादृशपरमाणु परमाणवः सन्ति, तयोः मध्ये भेदः आवश्यकं खलु. अन्यथा कथं ज्ञातुं शक्यते पृथिव्यौ वा जलं वा पृथ्वीपदार्थयोः मध्ये एतद् पुस्तकं वा खडः वा इति न ज्ञातुं शक्यते खलु. तत्र परमाणु अवस्थायां तत्र परमाणोः मध्ये कथं भेदं ज्ञातुं शक्यते इति विषयः.
अस्तु, तर्हि एवं वक्तुं शक्नुमः वा भगिनी, तत्र जातिः अस्ति चेत् तत्र ये एकस्मिन् एकस्यां जातिषु आगच्छति तत्र भेदः वर्तते. यदा गौषु भेदः अस्ति इति वदामः, अन्यरीत्या
अत्र पश्यतु, अत्र किम् उक्तम्? अवयवभेदेन अवयविभेदं खलु.
तर्हि तत्र अन्यविधम् अन्यविधभेदः अस्ति अवयवभेदः इति. तत् परमाणुरूपेण
निरवयवः अस्ति परमाणु, अतः अस्य भेदन भेदः कथं निरूपयितुं शक्यते? तदर्थं विशेषः इति पदार्थः.
अस्तु भगिनि, अवगतम्.
इदानीम् अन्य कोऽपि पठतु. नरसिंहमहोदय, भवान् पठतु
भगिनि. इत्युक्ते परमाणुना भेदः अस्ति वा?
निश्चयेन अस्ति.
बुद्धस्थपरमाणु गरस्थपरमाणु इत्युक्ते भेदः अस्ति वा?
अस्ति अस्ति, मम कृते एकं चित्रम् आसीत्, तदेव अहं दृष्टवती, इदानीं न प्राप्तम्. अहं ड्रैव् मध्ये स्थापयिष्यामि अनन्तरम्. अत्र पश्यतु, तत् फिसिक्स् रिसर्च् सैट् तः अहं प्राप्त स्वीकृतवती, तद् अहम् इदानीं ग्रूप् मध्ये स्थापयिष्यामि. तत्र पश्यतु निश्चयेन भेदः अस्ति महोदय.
परमांस्तजाति इत्युक्ते वक्तुं शक्नोमि वा?
न न न परमाणु पर न न न परमाणु एक एकपरमाणु अन्यपरमाणुतः भिद्यते खलु. अत्र जाति इति न वक्तुं श
अनेकपरमाणु अस्ति चेत् अनेकपरमाणु अस्ति चेत् जाति
अत्र जाति इति कुत्र वदामः? यत्र समानधर्मः अस्ति तत्र खलु तद् भिन्नपदार्थः अस्ति. इदानीं कीदृशपदार्थः अस्ति अस्माकं पुरतः? विशेषः इति पदार्थस्य विचारः अस्मिन् विचारे किमर्थं विशेषः इति पदार्थस्य स्वीकार्यता इति चेत् परमाणुषो भेदः निरूपणार्थं स्थापनार्थम्. महोदय पठतु. महोदय न श्रूयते. नरसिंहमहोदय अस्ति वा? हा देन् भवान् पठतु. रामनाथमहोदय महोदय पठतु.
अस्मि अस्मि महोदय.
महोदय पठतु.
न्यायशास्त्रस्य मतानुसारं सर्वे अपि पदार्थाः परस्परं परस्परं भिन्नाः. किमपि वस्तुद्वयम् इति चिन्तयतु, वस्तुद्वयं समानं न इति सिद्धान्तः. द्वणुकः पर्यन्तम् अयं भेदः साध्यते अवयवभेदात्. अधुना परमाणुद्वयं परस्परभिन्न भिन्नम् इति वक्तव्यं. तत् कथं वक्तुं शक्यते? यतोहि परमाणोः अवयवाः न सन्ति खलु. तदर्थ विशेष इति पदार्थः स्वीकृतः. सर्वेषु अपि परमाणुषु पृथक् पृथक् विशेषः नामकः कश्चन पदार्थः भवति. कथं भिन्ना भवति इति कृते किमपि वस्तुद्वयमिति चिन्तयतु, वस्तुद्वयं समानं न इति सिद्धान्तः अस्ति.
महोदय भवतः ध्वनि मध्ये मध्ये भग्नः भवति.
नेट्वर्क् बहु स्लो अस्ति महोदय अत्र इति कृत्वा. नेट्वर्क् बहु स्लो अस्ति अत्र. परमाणु परस्परभिन्न इति वक्तुं शक्यते, यतोहि परमाणु अवयवः न सन्ति खलु. दे ब्रेक् अप् अप् टु लास्ट् परमाणु, देट् परमाणु केनाट् बि फर्दर् ब्रोकन्. सो देट् वाट् एवर् स्पेशालिटि लेफ्ट् औट् इन् परमाणु, देट् दे हव् टेकन् एस् विशेष इति. दे हव् टेकन् एस् विशेषपदार्थ. सो टिल् देन् सम् कामनालिटि रिमेन्स्, बट् वेन् इट् केनाट् बि टेकन् फर्दर् there that vishesha vishesha
charama bhagaha antima bhagaha yadasti tasya nirupanartham visheshaha iti vishesha namaka kasana padarthaha. Dhanyavadah mahodaya. Nay shastra
mahodaya, one question, why there some people they don't believe that vishesha is there, why they don't believe विशेष इति अस्ति इति दे डोण्ट् अङ्गीकुर्वन्ति इति अस्ति.
विशेषः इति पदार्थः वैशेषिक अस्ति खलु, वैशेषिकदर्शनमस्ति खलु. तत्र कणादमहर्षिणा साधितवन्तः मन्दः अस्ति तद् नैयायिकः अपि अङ्गीकुर्वन्ति अन्येषां तस्मिन् अभिप्रायभेदः अस्ति तेन अङ्गीकुर्वन्ति न्यायशास्त्रे किं तेषां विचारसामर्थ्यं कीदृशः अस्ति ते सर्वे पदार्थान् स्वीकृत्य परस्परं भिन्नाः इति कृत्वा तेषां निरूपणं कथं ज्ञातुं शक्यते एषः कीदृशः पदार्थः इति चिन्तयित्वा सप्तपदार्थाः ये एव लोके सन्ति इति प्रथमं निरूपणं कृतम् अतः इदानीं तस्य उद्देशभागः अस्ति इदानीं वयं यत् पठिष्यामः तद् अत्र केवलं नामकरणम् एतत् किम् इति एव उक्तमस्ति अस्मिन् प्रसङ्गे वस्तुद्वयम् इति चिन्तयतु तद्वय वस्तुद्वयं समानं न इति सिद्धान्तः द्वयणुकपर्यन्तम् अयं भेदः साध्यते यतोहि अवयवभेदः अस्ति यत्र अणुद्वयम् आगच्छति तत्र इदानीम् अवयवः इति वदामः अधुना अवयवभेदेन वस्तुभेदः साधयितुं शक्यते परन्तु एक अणु एव अस्ति परमाणु एव अस्ति अन्तिमभागः यदस्ति तदेव अस्ति चेत् तत्र कथम् अस्य भेदः साधयितुं शक्यते इति कृत्वा विशेषः इति कश्चन पारिभाषिकशब्दः स्वीकृत्य अस्य निरूपणं कृतम्
धन्यवादः महोदय अवगतम्
इदानीम् अस्मिन् परिमाणौ पठति रामनाथमहोदय महोदय पठतु अस्मिन् परिमाणौ ततः पठतु
अस्मिन् परमाणु विशेष इति पदार्थः तस्मिन् परमाणौ अन्यकक्षणविशेष इति पदार्थः स च विशेष किं स्वरूपः तस्मिन् प्रसङ्गे किमपि वक्तुं न शक्नुमः तस्य परमाणुः विशेषः तावदेव येषां विशेषाणां समानत्वं कथमपि वक्तुं न शक्नुमः
कदापि
कदापि
कथमपि
कथमपि वक्तुं न शक्नुमः यतोहि तेषाम् अस्तित्वम् एव यदार्थं यत् सर्वे परमाणुभिन्नः च सर्वे परमाणुभिन्नः समानत्वं यदि उच्यते तर्हि विशेषद्वारा परमाणूनां परस्परभेदसाधनं न शक्यते इत्युक्ते
एतदेव भवतः प्रश्नः आसीत् खलु
मम प्रश्न मम प्रश्नस्य आन्सर् इत्युक्ते भवति
अत्र आगच्छति
इत्युक्ते परमाणु परमाणुविशेषपदार्थः अस्ति
अत्र समानत्वं चेत् कः दोषः
अस्य समानत्वं नास्ति चेत् विशेषरूपम् अस्ति
यदि समानता अस्ति इति वदामः चेदेव एव जाति इति वक्तुं शक्यते समानतः समानः इति वदामः चेत् कथं भेदः साधयितुं शक्यते इति प्रश्नः
द्वयपरमाणु समानता नास्ति चेत् यतैः तेषां परमाणुना भिन्नः अस्ति एकस्य परमाणु द्वयपरमाणुस्य भिन्नः अस्ति चेत् सर्वे परमाणुना भिन्नभिन्न अस्ति समानत्वं यदि उच्येते तर्हि एकविशेषद्वारा विशेष द्वारा मीन एक परमाणु से दूसरा परमाणु का भिन्न ये विशेष द्वारा मीन एक गणस परमाणु एक पुत्र का परमाणु एक मनुष्य परमाणु ये विशेष द्वारा एक भिन्न भिन्न परमाणु अस्ति एवं वदामः
तादृशविशेषः इति कीदृशपदार्थः इति न ज्ञातुं शक्यते
भगिनी अहं मन्ये परमाणु अपि भिन्न भिन्न अस्ति अहं विज्ञानशास्त्रप्रकारेण विस्तार ज्ञानं न आवश्यकम् अतः न्यायशास्त्र विचक्षण एतत् कार्यार्थं विशेषता अस्ति परमाणु एको नाम परन्तु प्रति परमाणु अन्यमन्यं तत्र तत्र
विद्यते
विज्ञानशास्त्रे आवश्यकं न्यायशास्त्रे न आवश्यकम् अतः विशेषपदार्थ इति मन्ये वदतु इति
तत् समीचीनमेव भवतः चिन्तनं यतोहि अस्माकं कृते तावदेव आवश्यकम्
अस्तु अस्तु
येन केनापि प्रकारेण परमाणु एकः परमाणु अन्यस्मात् परमाणुतः भिद्यते इति साधनीयं तदर्थं विशेषः इति कश्चन पदार्थः स्वीकृत्य तेषां भेदः साधितवन्तः तावदेव अस्मिन् प्रसङ्गे प्रश्नान् सन्ति चेत् पृच्छतु अदर्वैस् प्रश्नः ततः पठितुं शक्यते तेन अवगतवन्तः कृपया पृच्छतु उपेन्द्रमहोदय महोदय पठतु
आं भगिनि आचार्यजि नमस्ते आचार्यजि
नमस्ते महोदय
सर्वं समीचीनमस्ति आचार्यजि
धन्यवादः
प्रश्नः नास्ति
धन्य प्रश्नः ततः पठतु
किन्तु यदा पुस्तकत्वम् इत्यस्य कथनेन अपि सर्वाणि पुस्तकानि समानानि सन्ति इति नास्ति इति यदा ज्ञातं तथा एव विशेषत्वम् इति अस्य जातेः कथनेन तस्य अर्थः नास्ति एवं यत् सर्वे विशेषाः समानाः अग्रे पठामि आचार्यजी
उत्तरं पठतु
उत्तरं पुस्तकेषु सर्वत्रापि समानाः कश्चन धर्मः पुस्तकत्वं भवितुम् अर्हति यतः परस्परभेदः भेदः साध्यते अवयवभेदात् विशेषेषु यदि समानः विशेषत्वं स्वीक्रियेत तर्हि विशेषेषु समानत्वं आनीतं तदा अवयवाभावात् सर्वे अपि विशेषाः समानाः एव सर्वे विशेषाः समानाः चेत् एकः परमाणुः द्वितीयात् भिन्नः इति वक्तुं न शक्यते अतः विशेषत्वम् इति जातिः नास्ति
वदतु महोदय.
एतत् विशेषपदार्थस्य आवश्यकम् अत्र वदति. माताजि एकमेकं वाक्यं पठित्वा वदामि. पुस्तकेषु सर्वत्रापि समानः कश्चन धर्मः पुस्तकत्वं भवति भवितुमर्हति. यतः परस्परभेदः साध्यते अवयवभेदात्. पुस्तकेषु पुस्तकत्वं भवति, तस्मात् कारणेन सर्वेषु पुस्तकेषु समानधर्मः अस्ति. परस्परभेदम् अवयवभेदात् परस्परभेदं भवति.
एकनिमिषं महोदय, इदानीं पुस्तकत्वम् इति समानधर्मः पुस्तकेषु भवति, तदापि एकं पुस्तकम् अन्यस्मात् पुस्तकात् भिद्यते, तदपि वयं ज्ञातुं शक्यते, यतोहि अवयवभेदः अत्र इति कृत्वा. गोषु यद्यपि गोत्वम् अस्ति, तदापि एकः गावः भिन्नः अन्यगावी भिन्नः इति न वयं ज्ञातुं शक्यते खलु.
आम् 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 आचार्य.
तदेव
भेदः अवयवभेदेन भेदः ज्ञातुं शक्यते.
पूर्वं घटस्य विषये उक्तम्
अवयवभेदात् अवयवीभेदम् इति ज्ञातुं शक्यते. तत्
कपालभेदेन खडभेदः ज्ञातुं शक्यते.
तदा रूपभेदेन अपि गवोः मध्ये रूपभेदेन अपि भेदं ज्ञातुं शक्यते. विशेषत्वं विशेषेषु यदि समानः विशेषत्वं स्वीक्रियते तर्हि विशेषेषु समानत्वम् आनीतं, तदा अवयवभावात् सर्वे अपि विशेषाः समानाः एव. सर्वे विशेषाः समानाः चेत् एकः परमाणुः द्वितीयात् भिन्नः इति कथं वक्तुं न शक्यते.
एकनिमिषम् अत्र पश्यतु. इदानीं यत्र पुस्तकेषु पुस्तकत्वम् इति वदामः, तदा विशेषेषु विशेषत्वम् इति स्वीक्रियते चेत् का हानि इति उक्तमस्ति. इदानीं वदतु.
विशेषत्वं स्वीक्रियेत् तर्हि विशेषेषु समानत्वम् आनीतं, विशेषेषु समानत्वम् आनीतम् आवश्यकं भवति, तदा अवयवभेदात् सर्वे अपि विशेषाः समानाः एव. अवयवभेदात् सर्वे अपि विशेष
अवयव अभावात्
अच्छा हा 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 सोरि सन्धि करणीयमः. अवयव अभावात् अवयवं
निरवयवाः सन्ति खलु परमाणवः.
आमाम् आचार्य. अन्तिमपदार्थः परमाणु, तस्मात् अवयवाः नास्ति तत्र परमाणेषु. तस्मात् कारणात् अवयव अभावात् सर्वे अपि विशेषाः समानाः एव. अवयवाः यदा नास्ति तर्हि विशेषाः समानाः एव भवति. अतः किं विशेषम् आनीतं भवति इति प्रश्न
किमर्थम् आनीतं विशेषेषु समानता न आनीतम् इत्यस्य उत्तरम्
आम् सर्वे विशेषाः समानाः चेत् एकः परमाणु द्वितीयात् भिन्नः इति वक्तुं न शक्यते न शक्यति
अशक्यमस्ति खलु न शक्यते तयोः भेदः न साधयितुं शक्यते
आम् आम् आचार्यजी अतः विशेषत्वम् इति जातिः नास्ति तस्मात् कारणेन विशेषत्वं जातिः न भवति विशेषत्वं एकः धर्मः जातिः न भवति तत् यथा पूर्व उदाहरण एकः एव आकाशः तत्र जातिः न भवति तथा एव
स्वयं व्यावर्तते इति वदामः खलु स्वयं पृथक् पृथक्ततया तिष्ठति
आम् आचार्यजी
स्टाण्ड् इण्डिपेण्डेण्ट्लि
आम् सो इट् इस् हेविङ्ग् युनीक् धर्म
युनीक् धर्म
दट् इस् युनीक् धर्म हियर् वी केन् से एस् विशेषः इट् केन् बि ऐडेण्टिफैड् वित् दि संज्ञा विशेषः इस् इट् सो आचार्यजी
विथौट्
हेल्प् ऐ वुड् नाट् हव् बीन् इण्टर्प्रिटेड् लैक् दिस् बिकास् यु इण्टर्प्रिटेड् अण्ड् यु हेल्प्ड् मी आचार्यजी धन्यवादः
धन्यवादः निश्चयेन पठतु महोदय प्रतिवर्गं पठतु
आम् आं पठामि आचार्यजी नमस्ते आचार्यजी नमस्ते आचार्य
राजेश महोदय पठितवान् वा
आम् महोदय
न पठितवन्तः चन्द्रशेखर महोदय भवान् न पठितवान् खलु अत्र सन्देहः अस्ति वा एतत् अस्मिन् विषये स्पष्टता अस्ति इति चिन्तयामि सन्देहः अस्ति चेत् पृच्छतु चन्द्रशेखरमहोदय भवान् पठतु प्रश्नः ततः
अस्तु प्रश्नः अस्तु विशेषभेदात् परमाणुभेदः साधितः किन्तु द्वयो विशेषयोः भेदः कथं साध्यते इदानीं विशेषे पुनः अन्यं पदार्थं वयं स्वीकर्तुं न शक्नुमः उत्तरम् अत्र विशेषस्य प्रमुखं लक्षणम् इत्युक्ते स्वतो व्यावर्तकत्वं स्वतो व्यावर्तकत्वं स्वतो व्यावर्तकत्वम्
इत्युक्ते स्वेन व्यावर्तकत्वम् इति स्वतोः व्यावर्तकत्वं
स्वतोव्यावर्तकत्वम् इत्युक्तौ स्वस्य भेदं स्वयं साधयति स्वयम् आत्मानम् अन्यस्मात् पृथक् करोति इत्यर्थः परमाणो द्वयोः भेदं विशेषः साधयति द्वयोः विशेषयोः भेदं कः साधयति इति प्रश्नः
तदपि पठतु
पुनः उत्तरं द्वयो विशेषयोः भेदं स्वयं साधयति न तु अन्येन साध्यते विशेषत्वम् इति जातिः स्वीकृत्य चेत् तर्हि स्वतोव्यावर्तकत्वम् इति नष्टम् अतः धर्मरूपेण विशेषत्वं वक्तुं शक्यं किञ्च जातिरूपेण न तच्च विशेषत्वं प्रत्येकस्मिन् विशेषे भिन्नम् एव अनया रीत्या एव स्वतोव्यावर्तकत्वं स्थापयति
स्थास्यति कथं साधयति स्वतो व्यावर्तकत्वं कथं साधयति इति अत्र उक्तमस्ति प्रथमं कथं विशेषः इति कश्चन पदार्थः स्वीकृत्य परमाणोः मध्ये भेदः साधितं तदनन्तरं विशेषः इति इत्यस्य किमर्थं विशेषत्वम् इति न स्वीकृतम् अस्य विवरणम् अपि अत्र दत्तमस्ति यदि विशेषत्वम् इति स्वीकुर्मः चेत् स्वतो व्यावर्तकत्वम् इति धर्मः नष्टः भवति वदतु महोदय
स्वयमस्माणम् अन्यस्मात् पृथक् करोति
विशेषभेदात् परमाणुभेदः साधितः ततः वदतु
किन्तु द्वयो विशेषये भेदं कथं साध्यते हौ केन् इट्स् पासिबल् इदानीं विशेषे पुनः अन्यं पदार्थं वयं स्वीकर्तुं न शक्नुमः सो विशेषे तथा पुनः अन्यं पदार्थं विशेषे यूनिक् सो केनाट् बि अनदर् वन् अन्यं पदार्थं वयं स्वीकृतम् अन्यं पदार्थं वयं स्वीकर्तुं न शक्नुमः
अत्र एकम् प्रश्नः अस्ति अग्रे आयास्यति
विशेषेः पुनः अन्यं पदार्थं किमर्थं स्वीकर्तुं न शक्नुमः उत्तरं तत्र
यदि तादृशं स्वीकुर्मः चेत् कः हानिः भवति इति अत्र उत्तरत्वेन दत्तमस्ति विशेषे विशेषत्वम् इति वदामः चेत् अत्र समानता आगच्छति खलु अतः स्वयं व्यावर्तकत्वं नष्टं भवति इति कृत्वा विशेषे अन्यत् किमपि न योजितम्
स्य भेदं स्वयं साधयति इति स्वतो व्यावर्तकत्वं
विशेषस्य मुख्यलक्षणम् अस्ति तत् स्वतो व्यावर्तकत्वम् इति
स्वतो व्यावर्तकत्वं स्वयम् आत्मानम् अन्यस्मात् पृथक् करोति
स्वतो व्यावर्तकत्वम् इत्युक्ते स्वेन पृथक् करोति अन्यस्मात् पदार्थात् विशेषः विशेषः इति पदार्थः परमाणोः पृथक् करोति परमाणुषु कश्चन परमाणुः इति कश्चन पदार्थः तस्य पृथक्करणं कथं केन प्रमाणेन साधितं विशेषः इति पदार्थ स्वीकृत्य एव खलु तदर्थं विशेषः
केवलं विशेषेण साध्यति
साधयति सः विशेषः कीदृशः
द्वयो विशेषः भेदं कः साध्यति इति प्रश्नः पुनः उत्तरं द्वयो विशेषयोः भेदं स्वयं साधयति न तु अन्येन साधयति विशेषत्वम् इति जातिः स्वीकृत्य चेत् विशेषत्वं जातिः न सो इति स्वीकृत्य चेत् तर्हि स्वातोविवर्तकम् इति नष्टम्
नष्टं भवति इति कृत्वा न स्वीकृतं स्वव्यावर्तकत्वस्य आवश्यकता अस्ति यतोहि अन्यथा परमाणुवोः मध्ये भेदस्थापनं न कर्तुं शक्यते इति कृत्वा विशेषः इति पदार्थस्य आवश्यकता अस्ति यदि विशेषत्वम् इति वदामः चेत् तत्र जाति आगच्छति तदा यदा जाति आगच्छति तत्र स्वव्यावर्तकत्वं नष्टं भवति इति कृत्वा स्वव्यावर्तकत्वस्य नष्टं न इष्यति इति कृत्वा विशेषः इति कश्चन पदार्थः एव न तु विशेषत्वम् इति जाति
तच्च विशेषत्वं धर्मरूपेण वक्तुं शक्यं, जातिरूपेण न, तच्च विशेषत्वं प्रत्येकस्मिन् विशेषे भिन्नम् एव. अनया रीत्या एव स्वतोयवर्तकत्वं स्थास्यति. See, I can understand, not able to communicate clearly in Sanskrit, like Vishesha and Jati are basically, Vishesha means unique, Jati is a group. So Vishesha can be approved only by its own properties. So you can't prove it through Jati, it's not a common thing.
Tadeva Svena Vyavarteti Idi Uttam Sosya Bhedam Svayam Kareti.
स्वस्य भेदं स्वयं साधयति, स्वयम् आत्मानम् अन्यस्मात् पृथक्. विशेष
धन्यवादः महोदय. अत्र प्रश्नाः सन्ति वा?
प्रश्नः तु स्वतो व्यवर्तकत्वम् इत्युक्ते किं? स्वतो व्यवर्तकत्वम्
तस्य पृथक् स्वेन करोति, पृथक्करणम् आवश्यकं खलु. विशेषः इति कश्चन पदार्थः अस्ति इति उक्तं, स च पदार्थस्य धर्मः किम् अस्ति? परमाणोः मध्ये भेदः साधनीयः खलु, तदेव तस्य धर्मः. ततः विशेषः कुत्र वर्तते? परमाणुषु वर्तते इति कृत्वा तदेव तस्य धर्मः. अनेन धर्मेण तत् किं करोति? परमाणोः मध्ये भेदः साधनीय साधितः. तदेव स्वस्य व्यापकत्वम्. अनेन एकः परमाणु अन्य परमाणुतः भिद्यते.
स्वागतं, धन्यवादः.
महोदये, विशेषत्वं प्रत्येकस्मिन् विशेषे भिन्नम् अस्ति, एतत् तथा आगन्तव्यम्.
विशेषत्वम् इति वदामः चेत् तत्र धर्मं तावदेव स्वीकर्तव्यं. विशेषः इति धर्मः तावदेव स्वीकर्तव्यं. तद् कुत्र अस्ति? परमाणुषु अस्ति, न तु जाति इति न स्वीकर्तव्यं, केवलं धर्म.
द्वयो परमाणोः मध्ये समानं नास्ति.
नास्ति. अतः भेदसाधनाय एव विशेषः इति पदार्थस्य आवश्यकता अस्ति.
परन्तु
निरूपणार्थं
परन्तु द्वयो द्वि जालपरमाणुद्वयं स्वीकुर्मः, द्वे परमाणु समान सन्ति.
द्वे परमाणु समानः नास्ति, प्रत्येकं परमाणु भिन्नः एव.
परन्तु वयं जालं अस्माकं जालम् अस्ति, जलात् परमाणुद्वयं स्वीकुर्मः, द्वे प्रत्येकं परमाणु समानम् अस्ति. If you have two atoms of water, for example, then they are equal.
तदेव प्रश्नः, तद् कथं निरूपयितुं शक्यते? अवयवः नास्ति खलु, ओर्गन्स् नास्ति इति कृत्वा भेदः साधनीयः. समानः अस्ति इति वक्तुं शक्यते किन्तु भेदः कथं साधयितुं शक्यते नैयायिकमतानुसारं सर्वे पदार्थः भिद्यते भिन्ना एव समानः नास्ति इति तेषां मतम् तदनुसृत्य चिन्तनीयम् अतः कथं भेदं साधयितुं शक्यते
अतः
वक्तुं शक्यते किन्तु भेदः निरूपणीयः तदेव टास्क् अस्ति
ततः अवयव अभावात् समानं न शक्यते
न शक्यते
या ओके ओके या स्पष्टं धन्यवादः
द्वयोः परमाणूनां विशेषस्य भेदस्य अस्ति भेदः अस्ति विशेषस्य भेदस्य अस्ति
विशेषः विशेषयोः मध्ये अपि भेदः अस्ति अस्तु विशेषभेदात् परमाणुभेदः साधितः इति खलु विशेषभेदात् परमाणुभेदः साधितः किन्तु द्वयोः विशेषयोः भेदः कथं साध्यते इति प्रश्नः अत्र एव उत्तरं दत्तमस्ति विशेषः इति पदार्थः किमर्थं स्वीकृतं परमाणोः मध्ये भेदस्थानार्थं विशेषः स्वीकृतं पुनः विशेषः कीदृशः सा विशेषः स्वस्य पृथक्करणं स्वयं करोति तादृशपदार्थः अस्ति विशेषः स्वदेव्यावर्तकत्वम् इति अस्ति स्वतो व्यावर्तकत्वम् अवगतवान् वा महोदय
आचार्यजी
वन् मिनिट् आचार्यजी
वदतु
परमाणु ईस् इफ् वी केन् से इट् केनाट् बि फर्दर् broken down into smaller thing
ekadamish mahodaya aham recording atrastage ami sarvesham dhanyavada